अथ पञ्चमोऽध्यायः प्रथमः पादः प्राक्रीताच्छः उगवादिभ्यो यत् कम्बलाच्च संज्ञायाम् विभाषाहविरपूपादिभ्यः तस्मै हितम् शरीरावयवाद्यत् खलयवमाशतिलवृषब्रह्मणश्च अजाविभ्याम्थ्यन् आत्मन्विश्वजनभोगोत्तरपदात्खः सर्वपुरुषाभ्याम् नढयौ मानवचरकाभ्याम् खञ् तदर्थम् विकृतेः प्रकृतौ छदिरुपधिबलेर्ढञ् ऋषभोपानहोर्ञः चर्मणोय् तदस्य तदस्मिन् स्यादिति परिखायाढञ् प्राग्वतेष्ठञ् आर्हादगोपुच्छसङ्ख्यापरिमाणाट्ठक् असमासे निष्कादिभ्यः शताच्चठन्यतावशते सङ्ख्याया अतिशदन्तायाः कन् वतो रिड्वा विंशतित्रिंशद्भ्याम् ड्वन्नसंज्ञायाम् कंसाट्टिठन् शूर्पादयन्यतरस्याम् शतमानविंशतिकसहस्रवसनादण् अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् विभाषाकार्षापणसहस्राभ्याम् वित्रिपूर्वान्निष्कात् विस्ताच्च विंशतिकात्खः खार्या एकन् पणपादमाशशताद्यत् षाणाद्वा द्वित्रिपूर्वादञ्च तेन क्रेतम् तस्य निमित्तम् संयोगोत्पातौ गोद्व्यचो सङ्ख्यापरिमाणाश्वादेर्यत् पुत्राच्छ च सर्वभूमिपृथिवीभ्यामणयौ तस्येश्वरः तत्र विदित इति च लोकसर्वलोकाट्ठञ् तस्य वापः पात्रात्ष्ठन् तदस्मिन्वृद्ध्याय लाभशुल्कोपदादीयते पूरणार्धाट्ठन् भागाद्यच्च तद्धरति वहत्यावहति भाराद्वंशादिभ्यः वस्त्रद्रव्याभ्याण्ठन्कनौ सम्भवत्यवहरति पचति आढकाचितपात्रात्खोन्यतरस्याम् द्विगोष्ठंश्च कुलिजाल्लुःखौ च सोऽस्यांशवस्त्नभृतयः तदस्य परिमाणम् सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् पञ्चदशतौ वर्गे वा सप्तनोऽयि छन्दसि त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायाम् डण् तदर्हति छेदादिभ्यो नित्यम् शीर्षच्छेदाद्यच्च दण्डादिभ्यो यत् छन्दसि च पात्राद्घंश्च कडङ्करदक्षिणाच्छ च स्थालीबिलात् यज्ञर्त्विग्भ्याम् घखयौ पारायणतुरायण चान्द्रायणम् वर्तयति संशयमापन्नः योजनम् गच्छति पथष्कन् पन्थोणनित्यम् उत्तरपथेनाहृतम् च कालात् तेन निर्वृत्तम् तमधीष्टो भृतो भूतो भावी मासाद्वयसि यत्खञौ द्विगोर्यप् षण्मासान्यच्च अवयसिठंश्च समायाः खः द्विगोर्वा रात्र्यः संवत्सराच्च वर्षाल्लुक्च चित्तवति नित्यम् षष्टिकाः षष्टिरात्रेण पच्यन्ते वत्सरान्ताच्छन्दसि सम्परिपूर्वात्खच तेन परिजय्य लभ्यकार्यसुकरम् तदस्य ब्रह्मचर्यम् तस्य च दक्षिणायज्ञाख्येभ्यः तत्र च दीयते कार्यम् भववत् व्युष्टादिभ्योऽण तेन यथा कथा च हस्ताभ्याम् नयतौ सम्पादिनि कर्मवेषाद्यत् तस्मै प्रभवति सन्तापादिभ्यः योगाद्यच्च कर्मण उकै समयस्तदस्य प्राप्तम् ऋतोरण छन्दसि घस कालाद्यत् प्रकृष्टे ठञ् प्रयोजनम् विशाखाषाढादण्मन्थदण्डयोः अनुप्रवचनादिभ्यश्चः समापनात् सपूर्वपदात् ऐकागारिकच्चौरे आकालिकडाद्यन्तवचने तेन तुल्यम् क्रिया चेद्वतिः तत्र तस्यैव तदर्हम् उपसर्गाच्छन्दसि धात्वर्थे तस्य भावस्त्वतलौ आचत्वात् ननैपूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटयुधकतरसलसेभ्यः पृथ्वादिभ्य इम निज्वा वर्णदृढादिभ्यश्चैच गुणवचनब्राह्मणादिभ्यः कर्मणि च स्तेनाद्यन्नलोपश्च सख्युर्यः कपिज्ञात्योर्ढक पत्यन्तपुरोहितादिभ्यो यक् प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽ हायनान्तयुवादिभ्योऽण् इगन्ताच्च लघुपूर्वात् योपधाद्गुरूपोत्तमाद्वञ् द्वन्द्वमनोज्ञादिभ्यश्च गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु होत्राभ्यश्छः ब्रह्मणस्त्वः इति प्रथमः पादः